एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। दलस्य अभ्यन्तरे उत्पन्नस्य विवादस्य समाधानोद्देशेन नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्षस्य प्रधानमन्त्रिणश्च केपी शर्मा ओलिनः अपराध्यक्षस्य पुष्पकमल दाहाल प्रचण्डस्य च मध्ये ह्योऽपि विमृष्टम्। प्रधानमन्त्री निवासे बालवाटार स्थाने दलाध्यक्षस्य प्रधानमन्त्रिणश्च ओलिनः अपराध्यक्षस्य प्रचण्डस्य च मध्ये विमृष्टमिति नेकपा दलस्य प्रचार विभागस्य उपप्रमुखः सूर्य थापा अज्ञापयत्। राष्ट्रस्य अष्टाविंशे प्रहरी महानिरीक्षक पदे शैलेश थापा क्षेत्री पदोन्नीतो वर्तते। बालवाटार स्थाने ह्या उपविष्टेन मन्त्री परिषदः उपवेशेन प्रहरी अतिरिक्त महानिरीक्षक थापा प्रहरी महानिरीक्षक पदे पदोन्नीतः इति गृहमन्त्रिणः संचार संयोजकः किरण भट्टराई अज्ञापयत्। अद्यतः वर्तमान प्रहरी महानिरीक्षक ठाकुर प्रसाद गेवाली 30 वर्षीयानिवार्यावकाशे सेवानिवृत्तो भवति इत्यतः गतदिने मन्त्रिपरिषदा थापा प्रहरी महानिरीक्षक पदे नियुक्तो वर्तते। समाजवादी दलेन सांसद सरिता गिरी दलात् निष्कासितास्ति। दलात् निष्कासनेन सहैव सांसद पदादपि गिरी पदमुक्ता वर्तते। दलस्य महासचिवस्य रामसहाय प्रसाद यादवस्य नेतृत्वे संघटितेन त्रिसदस्यीय कार्यदलेन विहितस्य परामर्शनस्यानुसारेण गिरी इत्यस्य दण्डनस्य निर्णयो विहित इति समाजवादी दलस्य नेता मोहम्मद इश्तियाक राई अज्ञापयत्। गतदिने अतिरिक्ता 768 जना कोरोना संक्रमणात् मुक्ता सन्ति। स्वास्थ्य जनसंख्या मन्त्रालयस्य ह्यस्तने नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापक डाक्टर जागेश्वर गौतम गतदिने विभिन्नेषु स्थानेषु विद्यमानेभ्य एकान्तवास केन्द्रेभ्य 768 जनानां कोरोना संक्रमणात् मुक्ते पश्चात् गृह प्रत्यावर्तनानन्तरं नेपाले संक्रमणात् प्राप्त स्वास्थ्य लाभानां जनानां समग्र संख्या 7,7499 प्राप्ता वर्तते इत्यज्ञापयत्। नेपाले अद्यावधि कोरोना संक्रमणात् प्राप्त स्वास्थ्य लाभानां जनानां प्रतिशतं 10.44% वर्तते इति प्राध्यापक डाक्टर गौतमः अवोचत्। एवमेव गतदिने देशस्य विभिन्नासु प्रयोगशालासु 67,33% च जनानां पीसीआर विधिना विहिते निदर्शन परीक्षणे अतिरिक्तेषु 4,2 जनेषु कोरोना संक्रमणं पुष्टिभूतमस्ति। काष्ठमण्डपोपत्यकायाः विभिन्नासु 23 स्थानेषु कोरोना विषाणुना संक्रान्ताः जनाः प्राप्ताः सन्ति। ह्यः पश्चात्तनीषु 24 घण्टासु काष्ठमण्डप ललितपुर भक्तपुरेषु एव 28 जनेषु संक्रमणं दृष्टमस्ति। काष्ठमण्डपस्य चन्द्रागिरी बुढानीलकण्ठ धुम्बाराई तारकेश्वर गोलफुटार ट्याङ्लाफाँट तापासी वसुन्धरा नैकाप टेकु हाँडीगाउँ कुलेश्वर स्थानेषु संक्रान्ताः जनाः प्राप्ताः सन्तीति महामारी रोग नियन्त्रण महाशाखाया निर्देशकः डाक्टर वासुदेव पाण्डे अवोधयत्। एवमेव ललितपुरस्य धोबीघाट चापागाउँ कुपण्डोल ग्वारको खाङ्गु बाहाल गोटीखेल घैंसेपाटी गोदावरी टेचोक स्थानेषु भक्तपुरस्य बालकोट गट्ठागर स्थानयोश्च संक्रमणं प्राप्तमिति असौ अबोधयत्। काष्ठमण्डपे 14 ललितपुरे 10 भक्तपुरे 4 च जनेषु कोरोना संक्रमणं दृष्टमस्ति। राष्ट्रपतिना विद्यादेवी भण्डारिणा सह गतदिने दक्षिणैशैक क्षेत्रीय सहयोग संगठनस्य नवनियुक्त महासचिव एसाला रूबान वीराकुन राष्ट्रपति भवने शीतल निवासे विशिष्टाचार मेलनं व्यदधात्। तदवसरे संगठनस्य अतिरिक्त प्रभावकारिण्याः भूमिकायाः महत्वस्य च विषयो राष्ट्रपतिना बलं प्रदत्तमिति राष्ट्रपति कार्यालयस्य प्रवक्ता हरिप्रसाद दाहाल विज्ञप्तिर्माध्यमेन अबोधयत्। प्रधानमन्त्रिणा केपी शर्मा ओलिना फ्रान्स आयरल्याण्ड देशयोः प्रधानमन्त्रिभ्यां गतदिने पृथक पृथक वर्धापन सन्देशं सम्प्रेष्य अनयोः सफल कार्यकालस्य शुभकामना व्यक्ता वर्तते। फ्रान्स देशस्य प्रधानमन्त्रिणे जा कास्टेक्स इत्यस्मै प्रेषिते वर्धापन सन्देशे नेपाल फ्रान्स देशयोर्मध्ये विद्यमानं प्राचीनं मैत्रीपूर्णं जनस्तरीयं च सम्बन्धं चर्चयता प्रधानमन्त्रिणा सुदृढ आर्थिक सहकार्य बलं प्रदत्तमस्ति। एवमेव आयरल्याण्ड देशस्य नवनियुक्त प्रधानमन्त्रिणे माइकल मार्टिन डीटी इत्यस्मै प्रेषिते वर्धापन सन्देशे प्रधानमन्त्रिणा ओलिना तेन सह निकट सम्पर्के स्थित्वा पारस्परिक लाभाय सहकार्यम कर्तुम आत्मना इच्छितमस्तीति भाषितम वर्तते। देशद्वयस्यैव प्रधानमन्त्रिभ्याम् प्रेषिते वर्धापन सन्देशे प्रधानमन्त्रिणा ओलिना कोविड उनविंशतेः महामार्याः विरुद्धे अन्तर्राष्ट्रिय समुदायस्य मध्ये सहयोगाय ऐक्यबद्धतायै च बलम् प्रदत्तम् वर्तते। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य वरिष्ठ नेतुः जलनाथ खनालस्य नेपालस्य चीन देशीय राजदूतस्य हो यान्ची इत्यस्यश्च मध्ये ह्यो मेलवार्ता सम्पन्ना अस्ति। डल्लुवर्तिनी खनाल निवासे सम्पन्ने एतस्मिन् मेलने एतयोर्मध्ये देशद्वयस्य परस्पराभिरुच्योः विषये विमृष्टमिति ज्ञापितम् अस्ति। प्रतिनिधि सभायाः महिला सामाजिक समित्या थारू समुदायस्य उत्थानाय सशक्तिकरणाय च थारू आयोगस्य भूमिका अतिरिक्तां प्रभावकारिणी विधातुम् अद्यावधि विहितानां क्षमताभिवृद्धेः कार्याणां च अनुगमन मूल्यांकनयोः प्रतिवेदनं समितौ प्रस्तोतुं निर्दिष्टमस्ति। थारू आयोगस्य गतवर्षीयं प्रतिवेदनं विमृष्टुं गतदिने सिंहप्रासादे उपविष्टेन समितेः उपवेशेन थारू समुदायस्य अभ्यन्तरे वर्तमानाः जातिः वैज्ञानिकरूपेण सूचीकर्तुं मुक्त श्रमिकाणां विद्यमानावस्थायाः यथार्थ विवरणं समितौ प्रेषयितुं च निर्दिष्टं वर्तते। प्रतिनिधि सभायाः अर्थसमित्या वित्तापण मुद्रापणयोः सम्बन्धे अध्ययनाय संघटितया उपसमित्या वित्तापण मुद्रापणयोः दृष्टानां नीतिगतानां विधिगतानां व्यवस्थापन सम्बद्धानां च समस्यानां समाधानाय परामर्श सहितं प्रतिवेदनं समितौ अर्पितं वर्तते। समितेः ह्यसिंहप्रासादे उपविष्टे उपवेशे सांसदस्य रामकुमारी झाँक्री इत्यस्याः संयोजकत्वे संघटितया उपसमित्या प्रतिवेदनं एतत् अर्पितं वर्तते। इति समाचाराः।